अस्तु नमः सर्वेभ्यः. अत्र अस्माकं विषयः अस्ति जनकनाशजन्यगुणनाशविषये. करपत्रात् पठन्तः स्मः. तत्र पीलुपाकवादिनां मतं पिठरपाकवादिनां मतम् इति मतद्वयं परिशीलितं. गते सप्ताहे किं पठितम् इति तस्य कोऽपि स्मारयति वा? शुकवर्णमहोदय स्मारयितुम् इच्छति वा?
अहं गतसप्ताहे वर्गे आसं वा न वा इति न जाने, स्मृतवान्.
भवान् आसीत्? अस्तु, रामप्रिया भगिनी वक्तुम् इच्छति वा?
अहं करोमि महोदय. वादद्वयम् अस्ति, पीलुपाकवादः पिटरपाकवादः इति. पीलुपाकवादिनः तु वैशेषिकः अस्ति. ते वदन्ति यत् यदा तेजसंयोगः भवति तत्र परमाणु आरभ्य रूपं नश्यति. यदा घटः स्वीकुर्मः चेत् तत् परमाणौ आरभ्य तस्य रूपं नश्यति. परमाणौ द्वयणुकं त्रयणुकम् इति अन्ततो गत्वा घटस्य रूपं घटे विद्यमानरूपं नश्यति इति तेषां वादः. पितरपाकः तु वदन्ति समग्रघटे एव नाशं भवति. यदा घटस्य नाशं भवति सर्वेषु तस्य घटस्य सर्वेषु अवयवेषु युगपत् रूपनाशः भवति इति तेषां मतं.
घटनाशं भवति
क्षम्यतां, तदेव मम अहमपि एकनिमिषं. तेजसंयोगेन रूपनाशं भवति, घटस्य रूपनाशं भवति सर्वेषु अवयवेषु युगपत् भवति तेजसंयोगेन. पिटरपाकवादिनः ते तु नैयायिकाः अस्ति, ते वदन्ति एतत्. तत्तु
किन्तु घटनाशः कुत्र भवति, केषां मतानुसारं घटनाशः भवति? यदा परमाणुस्थले परमाणुद्वयोः संयोगः नष्टः, तस्मादारभ्य द्वयणकं त्रयणकं सर्वं नष्टं, तत् अस्ति पीलुपाकवादिनां मतानुसारं. नष्टे घटे रूपः अपि नष्टः, रूपमपि नष्टः. गते सप्ताहे अन्तिमपरिच्छेदे पठितवन्तः घटः नष्टः चेत् तस्मिन् विद्यमानरूपं तु नष्टमेव. न केवलं रूपान्तरं, घटान्तरमपि भवति तेषां मतानुसारम् इति मुख्यभेदः. अग्रे तथा एव अग्रे पठामः. अद्य विषयं किञ्चित् गम्भीररूपेण समवायिकारणम् असमवायिकारणमपि तयोः कः भेदः, मतयोः कः भेदः इति वार्ता अग्रे अस्ति. अपि च उदाहरणद्वयमपि आसीत्, न केवलं घटरूपनाशः, द्रवत्वनाशः घृते इति एको उदाहरणम् आसीत् पुस्तके. अपि च आत्मनि गुणविषये इति अन्यद् उदाहरणम् आसीत्. अत्र तस्य तेषां सर्वं परिशीलनम् अद्य भवति. अस्तु, शुकवान् महोदय तत् आरब्धम् इच्छते वा? तत्र च किम् आगतम्? पुष्पा, नमस्ते भगिनि. अस्तु महोदय, सर्वे पश्यन्ति वा? तत्र च पीलुपाकवादिनां मतेन तत्र अद्य आरम्भं भवति.
तत्र च पीलुपाकवादिनां मतेन घटे विद्यमानरक्तरूपं प्रति समवायिकारणं किं? घटः एव. अपि च घटे विद्यमानरक्तरूपं प्रति असमवायीकारणं किं? कपाले विद्यमानरक्तरूपं. कपाले विद्यमानरक्तरूपं प्रति असमवायीकारणं किं? कपालिकायां विद्यमानरक्तरूपम्. एवं रीत्या चतुरणुके विद्यमानरक्तरूपं प्रति, त्रयणुके विद्यमानरक्तरूपम् असमवायीकारणं, त्रैणुके विद्यमानरक्तरूपं प्रति द्वैणुके विद्यमानरक्तरूपम् असमवायीकारणं, द्वैणुके विद्यमानरक्तरूपं प्रति परमाणो विद्यमानरक्तरूपम् असमवायीकारणं, परमाणो विद्यमानरक्तरूपं प्रति असमवायीकारणं किं, समवायीकारणं किम्? हा, पीलुपाक वादिनः वदन्ति तेजसंयोगेन यद् संयोगः परमाणौ आसीत् तस्य नाशः भवति इति, तत् मतानुसारं असमवायीकारणम् अपि च समवायीकारणविषये किम् इति अस्मिन् परिच्छेदे दत्तमस्ति. घटे विद्यमानरक्तरूपं प्रति समवायीकारणं किम् इति वयं जानीमः एव. रक्तः तु रूपमस्ति, रूपं तु गुणः अस्ति, गुणं तु तस्य आधारद्रव्ये समवायसम्बन्धेन अस्ति इति कृत्वा घटमेव रक्तरूपस्य समवायीकारणं भवति. अपि च घटे विद्यमानरक्तरूपं प्रति असमवायीकारणं किं? तत्र तत्पूर्वं समवायीकारणम् इत्युक्ते किं? स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं यत् जनयति तत् समवायीकारणम् इति. घटः स्वस्मिन् तादात्म्येन तादात्म्यसम्बन्धेन स्थित्वा समवायेन रक्तरूपं जनयति, रक्तरूपस्य आधारं भवति इति कृत्वा घटः रक्तरूपस्य समवायीकारणं भवति. अपि च कथं घटे रक्तरूपम् आगतम् इति चेत् कपालद्वयसंयोगेन यथा घटं निर्मीयते तदा घटे कपाले यद् रक्तरूपवर्णम् आसीत् तदेव घटरूप घटे अपि आगच्छति इति कृत्वा असमवायिकारणस्य लक्षणं वयं जानीमः. यत् समवायेन स्थित्वा समवायेन कार्यं जनयति इति असमवायिकारणस्य लक्षणम्. अनेन कपाले स्थितस्य कपाले स्थितं रक्तरूपं समवायेन स्थितं रक्तरूपमेव घटस्य घटे विद्यमानरक्तरूपस्य कारणम् इति असमवायीकारणं भवति. पुनः कपाले कथं वा रक्तरूपम् आयातम् इति चेत् कपालिकायां विद्यमानरक्तरूपमेव कपाले विद्यमानरक्तरूपस्य असमवायीकारणम्. एवं रीत्या अन्ततो गत्वा चतुरणुके अपि च त्रयणुके अपि च द्वयणुके पुनः अन्ततो गत्वा किम् आयाति इति चेत् परमाणौ यद् रक्तरूपम् अस्ति तदेव द्वयणुके विद्यमानरक्तरूपं प्रति असमवायीकारणं भवति. द्वयणुके यद् रक्तरूपमस्ति तत् त्रयणुके विद्यमानरक्तरूपं प्रति असमवायीकारणं भवति इति. एवं रीत्या घटपर्यन्तं घटे यद् रक्तरूपं विद्यमानम् अस्ति तस्य असमवायीकारणं परम्परारीत्या परमाणौ अस्ति इति वयं जानीमः. किन्तु इदानीं प्रश्नः किमिति चेत् परमाणौ विद्यमानरक्तरूपं प्रति असमवायीकारणं किं, समवायीकारणं किम् इति अग्रे चिन्त्यम्.
उत्तमं महोदय. अत्र केवलं प्रत्येकस्तरे यस्य अवयवः घटस्य अवयवः कपालः तस्य अवयवः कपालिकाः तत्र यः अवयवः अस्ति तत्र तस्मिन् स्थितरक्तरूपं कार्यं प्रति कार्यं कार्यस्य रक्तरूपं प्रति कारणम् इति. द्वयणुकस्य द्वयणुकः परमाणौ इति अस्ति तत्र का स्थितिः इति प्रश्नः अग्रे. केनापि कस्यापि प्रश्नः अस्ति वा? केन आगतम्? शुकवन् महोदय, रामप्रिया भगिनी,
अहं सरला अस्मि, किन्तु शिवामि केवलं.
नमस्ते भगिनि. प्रश्नः अस्ति वा अस्मिन् परिच्छेदे? नो चेत् रामप्रिया भगिनी अग्रे
विद्याशङ्कर महोदय, तत्र असमवायिकारणे द्वैविध्यमस्ति किल, कारणेन सह कार्येण सह इति. अत्र घटे विद्यमानरक्तरूपं प्रति कपाले विद्यमानरक्तरूपम् असमवायिकारणं, किन्तु कीदृश असमवायिकारणम् इति किञ्चित् भ्रमः अस्ति मम.
पूर्वं तत् घटविषये चर्चितवन्तः. तत्र कपालद्वयसंयोगः, कपालद्वयसंयोगः घटं प्रति प्रथमविध असमवायिकारणं. कपालगतरूपं घटगतरूपं प्रति द्वितीयं विध असमवायिकारणम्.
ओ इति अस्तु महोदय, धन्यवादः
भगिनी. रामप्रिया भगिनी,
घटात् सर्वक्रमः समानः, किन्तु परमाणुस्तरे विद्यमानरक्तरूपं प्रति असमवायीकारणं तेभ्यः भिन्नम्. अत्र तु तेजसंयोगः एव परमाणौ विद्यमानरक्तरूपं प्रति असमवायीकारणम्. इत्थञ्च पीलूपाकवादमते घटरूपं प्रति कपालगतरक्तरूपम् असमवायीकारणम्. पिटरपाकवादिनां मते घटरूपं प्रति पाकः असमवायीकारणम्. पीलूपाकवादिनां मते कुत्र पाकः असमवायीकारणम्? परमाणौ विद्यमानरक्तरूपं प्रति एव तेजसंयोगः असमवायीकारणम्. पिटरपाकवादिनां मते घटीयपरमाणुतः आरभ्य घटपर्यन्तं विद्यमानरक्तरूपं प्रति तेजसंयोगः एव असमवायीकारणम्. परमाणवारभ्य घटपर्यन्तम् इत्येषु सर्वेषु स्तरेषु युगपदेव रक्तरूपम् उत्पद्यते. तर्हि तत्र परमाणुगतरक्तरूपं वा भवतु, घटगतरक्तरूपं वा भवतु, असमवायीकारणं पाकः एव. पीलूपाकवादिनां मते च घटगतरक्तरूपं प्रति तेजसंयोगः अन्यथा सिद्धः. उभयत्र रक्तरूपस्य समवायीकारणं समानं, केवलम् असमवायीकारणं विद्यते. अत्र पूर्वस्मिन् परिच्छेदे अन्तिमप्रश्नः आसीत्, परमाणौ विद्यमानरक्तरूपं प्रति असमवायीकारणं किं, समवायीकारणं किम् इति. तस्य उत्तरम् अत्र अस्ति, घटात् सर्वक्रमः समानः, इत्युक्ते घटात् आरभ्य क्रमः तु समानः, किन्तु परमाणुस्तरे विद्यमानरक्तरूपं प्रति असमवायीकारणं तेभ्यः भिन्नम्. परन्तु यदा परमाणुस्तरे वयम् आगच्छामः चेत् तत्र परमाणौ विद्यमानरक्तरूपं प्रति किम् असमवायीकारणम् इत्युक्ते तत्तु घटात् भिन्नः, घटरक्तरूपं तस्य समवायीकारणात् भिन्नः.
किमर्थं तेभ्यः भिन्नं? तेभ्यः इत्युक्ते केभ्यः?
घट असमवायीकारणं तेभ्यः भिन्नम्. तत्क्रमेभ्यः भिन्नम्.
असमवायिकारणं तत्र आसीत् ततः भिन्नं तेभ्यः, कपालिकायां रक्तरूपं, त्रयणुकं, चतुरणुकं रक्तरूपं, तेभ्यः अद्य अत्र भिन्नवार्ता अस्ति.
घटे विद्यमानरक्तरूपं प्रति असमवायीकारणं तु अस्ति कपाले विद्यमानरक्तरूपं, परन्तु यदा वयं परमाणुस्तरे आगच्छामः चेत् तत्र तद् विद्यते, असमवायीकारणं विद्यते. अत्र तु तेजसंयोगः एव परमाणौ विद्यमानरक्तरूपं प्रति असमवायीकारणम्. परमाणुः इति अधिकरणं रूपं परमाणौ विद्यमानरक्तरूपं परमा समवायीकारणेन परमाणौ स्थितौ क्षम्यतां तेजसंयोगः समवायेन परमाणौ 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 स्थितरक्तरूपं समवायीकारणेन परमाणौ
पुनः वदतु
कार्येण सह क्षम्यतां तेजसंयोगः समवायेन परमाणौ अस्ति तद् समवायेन रूपं जनयति परमाणौ स्थितरूपं जनयति असमवायीकारणं
सत्यं पूर्वस्मिन् परिच्छेदे समवायीकारणं किम् इत्यपि प्रश्नः आसीत् तर्हि परमाणौ विद्यमानरक्तरूपं प्रति समवायीकारणं किम्
परमाणौ स्थितरक्तरूपस्य समवायीकारणं परमाणुः एव गुण रूपमित्तु गुणः परमाणौ इति अधिकरणम् अस्ति अतः तदेव कारणं समवायिकारणं इत्थञ्च पीलुपाकवादमते घटरूपं प्रति कपालगतरूपम् असमवायीकारणम् इदानीं यदा पीलुपाकवद् मतं स्वीकुर्मः चेत् तत्र घटरूपं प्रति तद् वयं दृष्टवन्तः घटरूपं प्रति कपालगतरक्तरूपम् असमवायीकारणं तदेव वयं द्वितीय असमवायीकारणम् इति दृष्टवन्तः एतत्तु पीलुपाकवादमतं द्वितीयं पितरपाकवादिनां मते घटरूपं प्रति पाकः असमवायीकारणं तत्र तु घटरूपं प्रति पाकः असमवायीकारणं यदा वयं तेजस पाकः समवायेन घटे स्थित्वा घटरूपं समवायेन जनयति
पिटरपाकवादिनां मते इति मुख्यभेदः साक्षात् घटरूपं प्रति तेजसंयोगः पाकः असमवायकारणं पिटरपाकवादिनां मते किन्तु पीलुपाकवादिनां मते तथा नास्ति केवलं परमाणौ गतरक्तरूपं प्रति पाकः असमवायकारणं अस्तु अग्रे
पीलुपाकवादिनां मते कुत्र पाकः असमवायीकारणम् इति प्रश्नः परमाणौ स्तरे एव पाकः असमवायीकारणं परमाणौ विद्यमानरक्तरूपं प्रति एव तेजसंयोगः असमवायीकारणम् तदेव वयं दृष्टवन्तः इदानीं पितरपाकवादिनां मते घटीयपरमाणुतः आरभ्य घटपर्यन्तं विद्यमानरक्तरूपं प्रति तेजसंयोगः एव असमवायीकारणं परन्तु यदा पितरपाकवादिनां मतं स्वीकुर्मः चेत् तत्र घटीयपरमाणुतः आरभ्य परमाणु आरभ्य घटपर्यन्तं विद्यमानरक्तरूपं प्रति तेजसंयोगः एव असमवायीकारणम् इति भवति आम् युगपत् भवति इति कारणतः घटपरमाणुतः आरभ्य घटपर्यन्तं तदेव तेजसंयोगः
सत्यं यद्यपि आरभ्य इति उक्तं क्रमः नास्ति युगपत् एव सर्वत्र भवति आरभ्य इत्युक्ते केवलम् उक्तं किन्तु अग्रिमं वाक्यं पठतु परमाणु आरभ्य
महोदय युगपत् इति उक्ते कथम् अर्थं
समानकाले समानक्षणे सैमल्टेनियस्लि एकस्मिन् क्षणे
एतत् प्रथमविध असमवायीकारणम् अस्ति वा समवायेन समवाय
सत्यं 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 प्रथमविधसमवायकारणम्
परमाणु आरभ्य घटपर्यन्तम् इत्येषु सर्वेषु स्तरेषु युगपत् एव रक्तरूपम् उत्पद्यते. यदा पिटरपाकवादिनां मते परमाणु आरभ्य घटपर्यन्तं सर्वेषु स्थलेषु युगपत् एव रक्तरूपं रक्तरूपस्य उत्पादनं भवति. तर्हि तत्र परमाणुगतरक्तरूपं वा भवतु घटगतरक्तरूपं वा भवतु असमवायीकारणं पाकः एव. अत्र यदा वयं परमाणुगतरक्तरूपं स्वीकुर्मः वा घटगतरक्तरूपं वा स्वीकुर्मः वा असमवायीकारणं तु पितरपाकवादिनां मते पाकः एव कारणं. पीलुना पाकवादिनां मते तु घटरक्तरूपं प्रति तेजसंयोगः अन्यथा सिद्धः. ओहो, तत्र तु तेजसंयोगः यदा वयं कुलालः इति दृष्टवन्तः तादृशमेव अत्र तेजसंयोगः अन्यथा सिद्धः पीलुपाकवादिनां मते घटगतरक्तरूपं प्रति. उभयत्र रक्तरूपस्य समवायीकारणं समानं. यदा पीलुपाकवादिनां मते वा पितरपाकवादिनां मते वा समवायीकारणं तु घटः एव. रक्तरूपस्य समवायीकारणं घटः एव. असमवायीकारणं तु भिद्यते. यदा पितरपाकवादिनां मते तु असमवायीकारणं पाकः पीलुपाकवादिनां मते तु कपालगत रक्तरूपं घटगतरक्तरूपं प्रति असमवायीकारणम्.
तत्र केवलं वदामि उभयत्र रक्तरूपस्य असमवायकः इत्युक्ते घटगतरक्तरूपस्य समवायकारणं घटः, कपालगतरक्तरूपस्य समवायकारणं कपालः इति अस्ति. अपि च अत्र पितरपाकवादिनमते किमर्थं कपालगतरक्तरूपं घटगतरक्तरूपं प्रति कारणं न स्यात्?
पितरपाकवादिनां मते वा? पितरपाकवादिनां मते प्रश्नः महोदय, क्षम्यतां.
किमर्थं घटगतरक्तरूपं प्रति कपालगतरक्तरूपं किमर्थं न कारणं?
युगपत् सर्वे अव्यवहारः.
युगपत् इत्युक्ते पूर्वपृथक्त्वं नास्ति. कारणम् अस्ति चेत् पूर्वं भवेत्, तथा अत्र नास्ति. समानकाले भवति तस्मात् पूर्ववृत्तित्वं नास्ति. अपि च स्वरूपमहोदयस्य कक्षायां प्रश्नः आगतः किमर्थं घटगतरूपं प्रति तेजसंयोगः कारणं न स्यात्, कः सम्बन्धः? तस्य उत्तरम् अत्र अस्ति, अन्यथा सिद्धः. तेजसंयोगः पीलुपाकवादिनां मते तेजसंयोगः घटगतरक्तरूपं प्रति अन्यथा सिद्धः. न निमित्तकारणं, न समवायकारणं, न असमवायकारणं. यथा कुलालस्य पिता घटं प्रति कीदृशं कारणं, तादृशकारणम् अत्र अन्यथा सिद्धः. प्रश्नः अस्ति वा? अग्रे सुनील् महोदय पठितुमिच्छति वा आहत्य?
अहं पठामि आहत्य. पीलुपाकवादिनां मते तेजसंयोगेन घटे विद्यमानश्यामरूपं तु नश्यति, किन्तु नश्यति यतोहि घटः एव नष्टः. समवायकारणं नश्यति इति कृत्वा एव घटगतरूपं नश्यति. ते तु वदन्ति यत् अपक्वघट अवयवसंयोगे शैथिल्यमस्ति. तेजसंयोगानन्तरं घटस्य अवयवसंयोगे नैबिड्यम् अस्ति. अनेन च पूर्वतनघटः एव नश्यति, नूतनघटः च उत्पद्यते. तस्मात् जनकनाश अजन्यगुणनाशः इत्येव नास्ति, न सम्भवति. यतोहि तेजसंयोगेन रूपनाशप्रक्रियायां समवायिकारणम् असमवायिकारणं च उभौ नश्यतः। रूपनाशक्रमे घटः एव नश्यति, नूतनघटश्च उत्पद्यते। अतः घटादिषु रूपादीनां नाशः तेजसंयोगात् जायते इति पिटरपाग वादिनैयायिकमते एव, न तु वैशेषिकमते। वैशेषिकमते परमाणो रूपनाशः तेजसंयोगात्, घटे रूपनाशः जनकनाशात् एव, घटनाशात् एव घटगतरूपनाशः। घटनाशं विना घटे विद्यमानं रूपं न नश्यति न वा उत्पद्यते। आहत्य पीलुपागवादिनं मतेन तेजसंयोगेन घटे विद्यमान श्यामरूपं तु नश्यति, किन्तु नश्यति यतोहि घटः एव नष्टः। इदानीं पुनः पीलुपागवादीनां मते किम् आसीत् वयं दृष्टवन्तः। अत्र परमाणुस्तरे तेजसंयोगः भवति, अत्र परिवर्तनं भवति, अनन्तरं द्वयणुगे त्रयणुगे इति क्रमेण गच्छति सम्पूर्णघटे इति।
महोदय, कः क्रमः तत्र? परिवर्तनात् पूर्वं किं भवति? परमाणुद्वयोः किं भवति? परमाणुद्वयोः
प्रथमं परमाणुस्तरे रूपपरिवर्तनं भवति,
परिवर्तनात् पूर्वम्। अत्र पश्यतु, घटः एव नश्यति न वा, घटः एव नष्टः इति उक्तम्।
अहम् उक्तवान् पूर्वस्मिन् परिच्छेदे दृष्टवान् परमाणुस्तरे रूपं परिवर्तनं भवति इति।
परिवर्तनं तु भवति, किन्तु अत्र लिखितं नश्यति यतोहि घटः एव नष्टः। घटस्य नाशः कथं भवति इति स्मरति वा? परमाणुस्तरे किं भवति? परमाणुस्तरे परमाणुद्वयोः संयोगः नश्यति।
आम्, अत्र द्वयणुकः त्रयणुकस्य अवयवः, अतः द्वयणुकनाशः भवति चेत् अत्र समवायनाशः अपि भवति, क्रमेण घटनाशः भवति।
घटरूपं नाशं भवति, घटः नष्टः भवति, तस्मात् अत्र पश्यतु, पुनः पठतु प्रथमवाक्यम्। आहत्य
पीलुपागवादिनां मतेन तेजसंयोगेन घटे विद्यमानश्यामरूपं तु नश्यति, किन्तु नश्यति यतोहि घटः एव नष्टः।
इति मुख्यवार्ता अस्ति, घटः केवलं तेजसंयोगरूपम् इति न, रूपं नश्यति किमर्थमिति चेत् घटः नष्टः।
अग्रे पठामि वा? समवायिकारणं नश्यति इति कृत्वा एव घटरूपं नश्यति। अतः अत्र घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन रूपं जनयति इति अस्ति। अतः अत्र समवायिकारणं नश्यति इति कारणेन घटगतरूपं नश्यति इति।
घटरूपस्य समवायकारणं किम्?
घटः एव
नष्टः, तस्मात् रूपमपि नष्टम्।
ते तु वदन्ति यत् अपक्वघट अवयवसंयोगे शैथिल्यमस्ति। यदा अत्र घटः घटे सम्पूर्ण पक्वता नास्ति चेत् अत्र अवयवसंयोगे शैथिल्यम् अस्ति इति। तेजसंयोगानन्तरं घटस्य अवयवसंयोगे नैबिड्यम् अस्ति, अनेन च पूर्वतनघटः एव नश्यति, नूतनघटः च उत्पद्यते। अतः अत्र यदा तेजसंयोगः घटे भवति अत्र अवयवसंयोगस्य काठिन्यं भवति, अतः अत्र नूतनघटः उत्पद्यते, पूर्वतनघटस्य नष्टः भवति। तस्मात् जनकनाश अजन्यगुणनाशः इति एव नास्ति, न सम्भवति, यतोहि तेजसंयोगेन रूपनाशप्रक्रियायां समवायिकारणम् असमवायिकारणं च उभो नश्यतः अतः अत्र जनकनाश अजन्यगुणनाशः इति नास्ति अत्र तद् नाशं भवति इति अपि इत्युक्ते अत्र रूपनाशप्रक्रियायां यदा तेजसंयोगः भवति समवायिकारणम् असमवायिकारणं द्वौ अपि नश्यतः इति रूपनाशक्रमे घटः एव नश्यति नूतनघटश्च उत्पद्यते
पूर्वस्मिन् वाक्ये समवायिकरणम् असमवायिकरणं नश्यतात् के कौ तौ ते तौ कौ समवायिकारणम् असमवायिकारणं के ते
घटः समवायिकारणमस्ति इत्युक्ते रूपं प्रति स्वस्मिन् तादात्म्येन स्थित्वा समवायिकरणं घटः अत्र नूतनघटः इति अस्ति इति कारणेन अत्र अत्र समवायिकारणस्य नाशः अपि अभवत्
असमवायिकारणस्य नाशः कुत्र भवति कथं भवति
तत्रापि परमाणु द्वयणुकं प्रति कारणम् असमवायिकारणम् अनन्तरं द्वयणुकं त्रयणुकं प्रति असमवायिकारणम् इति क्रमेण अस्ति
तत्र संयोगः असमवायिकारणं यत् आसीत् तद् नश्यति तस्मात् उभौ नश्यतः अस्तु अग्रे अतः घटादिषु
अतः घटादिषु रूपादीनां नाशः तेजसंयोगात् जायते इति पिडरपाग वादी नैयायिकमते एव न तु वैशेषिकमते अत्र पूर्वं वयं दृष्टवन्तः पिडरपाग मते अस्ति समग्रगडे एकस्मिन् अवसरे एव रूप तेजसंयोगः भवति अतः अत्र रूपनाशः भवति इति अतः तत्र पिडरपाग मते एव अस्ति वैशेषिकमते नास्ति इति अत्र अस्ति
श्रीमुख्यवार्ता अस्ति जनकानाशः जन्यगुणनाशः इति वैशेषिकमते नास्ति एव
वैशेषिकमते परमाणो रूपनाशः तेजसंयोगात् घटे रूपनाशः जनकनाशात् एव घटनाशात् एव घटगतरूपनाशः अतः अत्र वैशेषिकमते इत्युक्ते पीलुपाकं मते परमाणो रूपनाशः यदा तेजसंयोगात् भवति तदेव क्रमेण घटे रूपनाशः भवति अत्र घटनाशात् एव घटगतरूपनाशः अस्ति इति घटनाशं विना घटे विद्यमानं रूपं न नश्यति न वा उत्पद्यते अत्र इदानीं पुनः पीलुपाग मते अस्ति घटनाशं विना घटे विद्यमानरूपं न नश्यति इति अथवा उत्पादनमपि अत्र एतादृशरीत्या एव इति
समवायकारणमपि नष्टम् असमवायकारणमपि नष्टं तस्मात् रूपमपि नष्टम् अस्तु सम्यक् अस्ति प्रश्नः अस्ति वा
अत्र किञ्चित्
जनकनाश जन्यगुणनाश पुनः वदतु
जनकनाश अजन्यगुणनाशः पीलुपाकवादेन मते न भवति जनकनाश एव भवति जनकः इत्युक्ते कारणं त्रिविधं समवायकारणम् असमवायकारणं निमित्तकारणम् इति जनकम् अस्य उदाहरणे तेषां मतानुसारं समवायकारणस्य नाशः घट एव नष्टः तर्हि घटगतरूपम् अवश्यं नष्टम् खलु
धन्यवादः
किन्तु जनकनाश अजन्यगुणनाशः वैशेषिक किं किं पिटरपाकवादिनां मते तादृश उदाहरणं स्वीक्रियते इति संयोगेन पूर्वगतरूपं नष्टम्
महोदय तत्र तेजसंयोगेन रूपनाशप्रक्रियायां समवायीकारणम् असमवायीकारणं च उभौ नश्यतः इति. तत्र समवायीकारणं तु घटं घटः एव, असमवायीकारणं तु परमाणौ विद्यमानसंयोगः इति भवता उक्तं किल.
घटमिति न, घटस्य असमवायकारणं कपालगत कपालद्वयसंयोगः क्रमेण तत्र तथा भवति. आरम्भे परमाणुद्वयसंयोगः नश्यति चेत् द्वयोनकं नश्यति, तस्मात् सर्वं क्रमेण इति.
हा, अत्र उभौ अस्मिन् वाक्ये तेजसंयोगेन रूपनाशप्रक्रियायां समवायीकारणम् असमवायीकारणं च उभौ नश्यतः इति दत्तमस्ति किल. तत्र समवायीकारणं किम् असमवायीकारणं किम्?
तस्य परमाणु स्तरे स्वीकुर्मः चेत् परमाणुद्वयसंयोगः असमवायिकारणं, परमाणु एव परमाणुगतरूपस्य रूपं प्रति परमाणुः एव समवायिकारणम्. समवायकरणं न नश्यति तत्र, परमाणुस्तरे समवायकरणं न नश्यति. हा, परमाणुस्तरे तथा नास्ति. परमाणुस्तरे तेजसंयोग एव असमवायकारणं रूपस्य, रूपं नश्यति तेजसंयोगेन.
अस्मिन् वाक्ये पिटरपाक वादिनां मतमेव तत्र प्रतिपादितम् अस्ति किल. तेषां मतानुसारेण जनकनाश अजन्यगुणनाशः इत्येव नास्ति. पिटरपाकवादिनां मते
जनकनाश अजन्यगुणनाशः पीलुपाकवादिनां नास्ति. यतो हि घटः नष्टः न वा, घटः जनकः घटरूपं प्रति. घटः नश्यति चेत् जनकनाशः एव भवति.
पीलुपाकवादिनां मतानुसारं घटः नष्टः भवति किल.
सत्यम्
इति जनकनाश अजन्यगुणनाशः इत्येव नास्ति तेषां मतानुसारम्. आं, घटः नष्टः इति कृत्वा. अस्तु, यतोहि तेजसंयोगेन रूपनाशप्रक्रियायां समवायीकारणम् असमवायीकारणं च उभौ नश्यतः. तत्र रूपस्य घटे विद्यमानरक्तरूपस्य समवायीकारणं तु घटः, तत् नश्यति. अपि च असमवायीकारणं पीलुपाकवादिना मतानुसारं कपालः किल.
कपालगतरूपं,
कपालगतरक्तरूपमेव घटगतरूपरक्तरूपं प्रति असमवायीकारणं भवति पीलुपाकवादिनां मतानुसारेण इति. कपालः अपि नश्यति इति अत्र दत्तमस्ति वा? कपाले विद्यमानरक्तरूपं नश्यति इति, असमवायीकारणं नश्यति इति दत्तमस्ति वा इति भ्रमः मम मयि.
अस्मिन् वाक्ये रूपं प्रति समवायिकारणं घटः, तद् नश्यति. रूपं प्रति असमवायिकारणं कपालगतरक्तरूपं, तदपि नष्टः, तदपि नष्टम्. समवायकरणमपि नष्टम् असमवाय घटस्तरे, समवायकरणमपि नष्टम् असमवायकरणमपि नष्टम्. अतः घटे तेजसंयोगात् यथा घटादिषु रूपादीनां नाशः तेजसंयोगात् जायते, अस्य वाक्यस्य उदाहरणं न स्वीक्रियते. यतोहि घटादिषु रूपादीनां नाशः तेजसंयोगात् नास्ति. घटादिषु रूपनाशः घटनाष्टेन भवति न वा इति तात्पर्यम्.
किञ्चित् आम्, घटः नष्टः भवति पीलुपाकवादिना मतानुसारेण इति बुद्धम्. अतः समवायीकारणं निश्चयेन नश्यति असमवायीकारणं तु कपालगतरक्तरूपमेव. तत् कथं तस्य नाशः भवति
इत्युक्ते क्रमेण न भवति वा तत्र परमाणुस्वयद्वयोसंयोगः तत्र आरभ्य द्वयणुकं नष्टं त्रयणुकं नष्टं तस्मात् क्रमात् कपालः अपि नष्टः. किन्तु हा किन्तु अत्र समवायकारणं नष्टं चेत् रूपं नष्टं तदेव पर्याप्तम् उदाहरणरीत्या वा उदाहरणार्थम् उपाधीनां नाशः तेजसंयोगः जायते इति न किमर्थं समवायकरणं नष्टं तत् पर्याप्तं किन्तु असमवायकरणमपि नश्यतः इति उक्तं पूर्वस्मिन् वाक्ये.
हा अतः एव किञ्चित् भ्रमः जातः. समवायिकारणं नश्यति चेत् किमपि न तत्र स्थास्यति किल.
हा सत्यं आवश्यकता नास्ति किन्तु क्रमः सम्पूर्णक्रमे एवं सर्वं भवति इति ज्ञातव्यम्.
अस्तु अस्तु
साधु प्रश्नः अस्ति वा नो चेत् पुष्पा भगिनी पठितुमिच्छति वा अग्रे. इदानीं नूतन उदाहरणम्
अस्तु महोदय अग्रे कृते नाश् अस्ति चेत् एकनिमिषः महोदय अग्रे घृते द्रवत्वनाशः तेजः संयोगेन अस्तु इति अन्यः एकदेशः अन्वयदृष्टान्तः तत् किमर्थम् अन्यः चतुर्भ्यः भिन्नः यतोहि रूपं रसं गन्धः स्पर्शः इत्येते चत्वारः गुणाः यदा नश्यति तदा
नश्यन्ति तदा
तदग्रिमे तत् अग्रिमे क्षणे नूतनरूपं रसः गन्धः स्पर्शः च उत्पद्यन्ते. किन्तु द्रवत्वं न तथा यथा नश्यति तत् स्थाने नूतनद्रवत्वं न उत्पद्यते. द्रवत्वं अतः दृष्टान्तान्तरम् अतः दृष्टान्तान्तरम् अस्तु अत्र घृतं विषये घृतं या घृतः घृतं न
नपुंसकः
घृतं विषयं विवरणं कृतम् अत्र तेजसंयोगेन अन्य एकदेशः आयाति घृते.
घृते किम् अस्ति घृते कः गुणः
घृते सालिड् कथं वदामि
अत्र द्रवत्वम् इति गुणः द्रवत्वं
गुणः गुणं
स्लो करोति यतोहि
कृते द्रवत्वम् इति गुणः अस्ति. अस्तु अस्तु किमर्थम् अन्यः चतुर्भ्यः भिन्नः
एकनिमिषं कृते द्रवत्वस्य का स्थितिः द्रवत्वस्य किं भवति नाशः भवति
घटं घृढम् अस्ति घृढं सालिड् इस् घृढं न
हा घृतम् अत्र द्रवत्वम् इत्युक्ते फ्लूइड् यथा जले अस्ति द्रवत्वम् आरम्भे घृते द्रवत्वम् इति गुणः अस्ति द्रवत्वं किन्तु तस्य का स्थितिः तेजसंयोगेन
वदामि
द्रवत्वं
मेल्ट्स् न कथं वदामि
अत्र तथा न द्रवत्वस्य नाशः भवति, यतोहि तेजसंयोगेन किञ्चित् अन्या स्थितिः आगच्छति,
अन्यस्थितिः स्थितिः आगच्छति इति अन्य एकदेशः स्थितिः
न तेजसंयोगेन तथा न भगिनि, तेजसंयोगेन द्रवत्वस्य नाशः भवति, नाशः भवति इति अन्यः एकदेशः, एकदेशः इत्युक्ते वन् इन्स्टेन्स्, अन्यः दृष्टान्तः, अन्वयदृष्टान्तः
अस्तु, तत्तु अन्वयदृष्टान्तः उक्तं चेत् विवरेण अन्वय न अन्वयदृष्टः तु डिस्क्रिप्टिव् न
किमपि, किन्तु कस्य दृष्टान्तः अत्र, कस्य दृष्टान्तः
वृत्तस्य
न वृत्त द्रवत्वनाशः इति एकदेशः, किन्तु कस्य दृष्टान्तः इत्युक्ते जनकानाशजन्य गुणनाशस्य एकदेशः दृष्टान्तः,
एकदेशकृष्णः
यथा घटस्थले घटरूपं यथा नश्यति तथा एव घृते द्रवत्वस्य तेजसंयोगेन नाशः भवति इति नूतनः दृष्टान्तः, द्वितीयदृष्टान्तः
अस्तु.
किमर्थम् अन्यः, किमर्थं भिन्नं, किं कः भेदः इति वदतु, किमर्थं
किं चतुर्भ्यः तु रूपं रसः गन्धः स्पर्शः
सत्यं तथा एव, तेभ्यः भिन्नः किमर्थं
भिन्नं, तदग्रिमे क्षणे नूतनरूपम् आयाति, नूतनरूपं रसं रसः गन्धः स्पर्शः च उत्पद्यन्ते तत् न स्यात् द्रवत्वं न स्यात्, किन्तु द्रवत्वं न तथा यदा नश्यति तत् स्थाने नूतनद्रवत्वं न उत्पद्यते, अतः दृष्टान्तान्तरं अग्रिमे दृष्टामः कथम् अस्ति तत् कथम् अस्ति इति.
अतः दृष्टान्तरं नूतनदृष्टान्तः किमर्थम्, उदाहरणं त्रयं दत्तम्, एकः अस्ति घटतेजसंयोगेन घटरूपनाश इति एक उदाहरणम्, एक अन्वयदृष्टान्तः, द्वितीयः अस्ति घृते द्रवत्वस्य नाशः, कः भेदः घटरूप घटविषये यथा यत्र एकः गुणः नश्यति अन्यः गुणः आगच्छति, नूतनरूपं वा रसं वा रसः वा गन्धः वा स्पर्शः इति आगच्छति, किन्तु द्रवत्वस्थले यथा घृते द्रवत्वस्य नाशः भवति तेजसंयोगेन तत्र नूतनगुणः किमपि न आगच्छति, केवलं गुणः नष्टः, द्रवत्वं नष्टः, द्रवत्वं नष्टम् इति भेदः. तदर्थं
गुणः न गुणानि न
द्रवत्वं गुणः सत्यं, तत्र गुणः नष्टः तेजसंयोगेन, अत्रापि जनक अनाश जनकनाश अजन्य
गुणनाशः
समानाधिकरणगुणधन्यः
पठामि अग्रे,
भवान् शुकवान् महोदय पठति वा अग्रे जनकनाशजन्य
महोदय. जनकनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्यस्य तृतीयम् उदाहरणम् आत्मसमवेतज्ञानादीनामपि नाशः, ज्ञानम् इति गुणः आत्मनि, तच्च ज्ञानं क्षणिकम् यतोहि नश्यति तदुत्तरवर्ति ज्ञानेन, यथा आत्मनि एकं ज्ञानम् अस्ति अग्रिमक्षणे उत्पन्नं यद् ज्ञानं तेन नूतनज्ञानेन पूर्वक्षणे विद्यमानं ज्ञानं नश्यति, तेन नूतनज्ञानेन पूर्वक्षणे विद्यमानं ज्ञानं नश्यति, आत्मनि पूर्वं विद्यमानं ज्ञानम् इति कश्चन गुणः अग्रिमे क्षणे ये ज्ञानम् उत्पद्यते सोऽपि गुणः, अतः जनकनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्यत्रापि अस्ति इति कृत्वा अन्यः एकदः अन्वयदृष्टान्तः इति इदानीं किमपि उक्तं वा
एकदेशः इति एकदेशः
इति कृत्वा अन्यः एकदेशः अन्वयदृष्टान्तः इति अस्मिन् परिचये तृतीय उदाहरणं दत्तमस्ति पूर्वस्मिन् परिच्छेदे अपि च तत्पूर्वमपि उदाहरणद्वयम् अस्माभिः दृष्टम्. एकं तु घटे विद्यमानरक्तरूपस्य नाशः, द्वितीयं तु द्रवत्वं घृते विद्यमानद्रवत्व नाशः. इदानीं तृतीय उदाहरणम् अस्ति आत्मनि यत् ज्ञानं वर्तते तस्य नाशः अपि जनकनाश अजन्यगुणनाशः समानादिकरणगुणजन्यः इत्यस्य एकदेशः अन्वयदृष्टान्तः भवति. तत् कथम् इति चेत् ज्ञानं तु गुणः इति वयं जानीमः, चतुर्विंशतिगुणेषु अन्यतमः. ज्ञानं तु आत्मनि उत्पद्यते इत्यपि वयं जानीमः. ज्ञानस्य स्वभावं तु क्षणिकम् इत्यपि वयं जानीमः. क्षणात्मकं, यस्मिन् क्षणे उत्पद्यते तस्य उत्तरक्षणे तद् नश्यति. तत् कथं नश्यति इत्युक्ते उत्तरक्षणे नूतनज्ञानम् उत्पद्यते, नूतनज्ञानम् अपि गुणः, तदपि आत्मनि एव उत्पद्यते. नूतनज्ञानं यदा उत्पद्यते तस्मिन् क्षणे एव पूर्वज्ञानस्य नाशः अपि भवति इति कृत्वा नूतनज्ञानं पूर्वज्ञानं प्रति कारणं भवति इति कृत्वा समानादिकरणगुणजन्यः भवति. तत्र जन्यः इत्युक्ते नाशः एव, समानादिकरणगुणजन्यः इत्युक्ते पूर्वज्ञानस्य नाशः नूतनज्ञानेन भवति. द्वयमपि एकमेव अधिकरणे आत्मनि वर्तते इति कृत्वा तयोः मध्ये सामानादिकरण्यम् अस्ति इति कृत्वा तत्र नाशः समानादिकरणगुणजन्येन, पूर्वज्ञानस्य नाशः समानादिकरणे आत्मनि विद्यमाननूतनज्ञानेन भवति इति कृत्वा. किन्तु यदा पूर्वज्ञानस्य नाशः भवति आत्मनः नाशः न भवति इति कृत्वा जनकनाश अजन्यगुणनाशः समानादिकरणगुणजन्यः इति एतदपि एकदेशः अन्वयदृष्टान्तः भवति. अत्र जनकनाश अजन्यगुणनाशः इत्युक्ते जनकः अस्मिन् सन्दर्भे आत्मा अस्ति, तत्तु समवायेन ज्ञानं जनयति इति कृत्वा आत्मा एव जनकः, पूर्वज्ञानस्य जनकः. यदा पूर्वज्ञानस्य नाशः भवति तदा आत्मनः नाशः न भवति इति कृत्वा जनकनाश अजन्यगुणनाशः भवति. तत् पूर्वज्ञानस्य नाशः तु नूतनज्ञानेन भवति इति कृत्वा समानादिकरणगुणजन्यः भवति इति अन्वयदृष्टान्तः. अन्वयम् इत्युक्ते यत्सत्त्वे यदस्ति तदेव अन्वयः इति कृत्वा एतत् अन्वयदृष्टान्तः भवति.
बहु सम्यक् महोदय. प्रश्नः अस्ति वा? तृतीयम् उदाहरणम्, आत्मनि ज्ञानम् उत्पद्यते एकस्मिन् क्षणे, अग्रिमे क्षणे तत् ज्ञानं नश्यति, नूतनज्ञानम् आगच्छति, क्रमेण अग्रे पुनः इतोपि चर्चा भवति, किन्तु इति अस्ति ज्ञानस्य विषये तथा अस्ति. अस्तु, रामप्रिया भगिनी अग्रे पठितुम् इच्छति वा? अग्रे च
अग्रे च आत्मसमवेतज्ञानादीनाम् इति उक्तं नाम सुखं दुःखम् इच्छा द्वेषः प्रयत्नः इत्येते गुणाः अपि क्षणिकाः, उत्तरक्षणे उत्पन्नगुणेन नश्यन्ति. आत्मनि विद्यमानं क्षण उत्पन्नगुणेन नश्यन्ति. आत्मनि विद्यमानं सुखं नश्यति, तद् उत्तरवर्ति सुखेन दुःखेन च. दृष्टान्ते मित्रस्य मृत्युः जातः. मित्रस्य मरणम् इति ज्ञानं यदा आत्मे जायते तदा तद् ज्ञानं पूर्ववर्ती सुखस्य नाशकम्. एवमेव पूर्वतनसुखम् अग्रिमसुखं नाशयति. अग्रे च एवं रीत्या क्रमेण परस्परनाश्यनाशकभावो भवति. भिन्नभिन्न दुःखानि भवन्ति गच्छता कालेन, तेषां क्रमेण परस्परनाश्यनाशकभावः वर्तते. तथैव च इच्छा द्वेषः प्रयत्नः इत्येषामपि प्रसङ्गे. इदानीम् आत्मसमवेतज्ञानादीनाम् इति यदा उक्तं पूर्वस्मिन् परिच्छेदे, आत्मसमवेतज्ञानादीनां नाशः इति उक्तं. तत्र आत्मसमवेतज्ञानादीनाम् इत्युक्ते सुखं दुःखम् इच्छा द्वेषः प्रयत्नः एते गुणाः तदपि क्षणिकाः, यदा ज्ञानं तदपि क्षणिकाः एव. इत्युक्ते यदा नूतन ज्ञानम् उत्पद्यते पूर्वस्मिन् क्षणे यद् ज्ञानम् अस्ति तस्य नाशः भवति. उत्तरोत्तरक्षणीय उत्पन्नगुणेन नश्यन्ति. यदा उत्तरक्षणे नूतन इच्छा उत्पद्यते चेत् पूर्व गुणस्य नाशः भवति. पूर्वस्मिन् क्षणे आत्मनि विद्यमानं सुखं नश्यति, तद् उत्तरवर्ति सुखेन दुःखेन च. आम्, यदा सुखम् आत्मनि यदा विद्यमानं सुखं तस्य नाशः भवति, उत्तरवर्ति अग्रिमक्षणे सुखेन दुःखेन उत्पादनं भवति चेत् पूर्वस्मिन् क्षणे यत् सुखम् अस्ति तस्य नाशः भवति. यदा उदाहरणरूपेण दत्तमस्ति अत्र, यदा मित्रस्य मृत्युः जातः चेत् पूर्वं यद् सुखम् अस्ति तस्य नाशः भवति, पूर्ववर्ती सुखस्य नाशकं भवति आत्मनि इति. एवमेव पूर्वतनसुखम् अग्रिमसुखं नाशयति. अग्रे च एवं रीत्या क्रमेण परस्परनाश्यनाशकभावः भवति. परस्परनाश्यनाशकभावः इत्युक्ते यदा पूर्वतन सुखम् अस्ति तद् अग्रिमं सुखम् आगत्य पूर्वतन सुखस्य नाशः भवति. तदेव परस्परनाश्यनाशकभावः इति उक्तमस्ति. भिन्नभिन्नदुःखानि भवन्ति गच्छता कालेन, तेषां क्रमेण परस्परनाश्यनाशकभावः वर्तते. यदा भिन्नभिन्न दुःखानि वा सुखानि वा भवन्ति कालेन गच्छता कालेन, तत्र नाश्यनाशकभावः परस्परनाश्यनाशकभावः भवति. तथैव च इच्छाद्वेषः प्रयत्नः इत्येषामपि. यदा दुःखस्य विषये वयम् उक्तवन्तः तादृशमेव इच्छाद्वेषप्रयत्नः इत्येषामपि परस्परनाश्यनाशकभावः वर्तते तत्रापि.
अत्र आत्मसमवेतज्ञानादीनाम् इत्युक्ते किम्?
आत्मासमवेतज्ञानादीनां यदा ज्ञानम् इति गुणः समवायसम्बन्धेन आत्मा आत्मनि सन्ति इति. ज्ञानादीनाम् इत्युक्ते सुखं दुःखम् इच्छा द्वेषप्रयत्नः.
आत्मनि ते समवेतः ज्ञान ज्ञानं सुखम् इति षड् गुणाः. अस्तु, सम्यक्तया उक्तं. प्रश्नः अस्ति वा किमपि? अस्तु, अग्रे सुनील् महोदय पठितुमिच्छति वा? ज्ञानं सुखं सुखं दुःखं.
ज्ञानं सुखं दुःखम् इच्छा द्वेषः प्रयत्नः इत्येते योग्यविभु विशेषगुणाः. येषां योग्यविभु विशेषगुणानां स्वोत्तरोत्पन्नविशेषगुणानां गुणनाशत्वम् इति नियमः. योग्यः इत्यनेन प्रत्यक्षयोग्यः, योग्याः ये विभुविशेषगुणाः. अहं सुखी अहं दुःखी इत्यनयोः प्रत्यक्षं जायते अस्माकम्. अहं जाने इत्यस्यापि प्रत्यक्षं जायते. आत्मा विभुद्रव्यं सर्वमूर्तद्रव्यसंयोगी इति. तस्य च विशेषगुणाः ये योग्याः सन्ति, तादृशयोग्याः ये विभु विशेषगुणाः भवन्ति, तेषां योग्यानां विशेषगुणानां स्वोत्तरोत्पन्नविशेषगुणेन नाश्यत्वम् इति भवति. अत्र ज्ञानं सुखं दुःखम् इच्छा द्वेषः प्रयत्नः इति, अत्र योग्यविभुविशेषगुणाः इति सन्ति. अत्र योग्यविषये विभुविशेषगुणाः किम् इति के इति अग्रे आगच्छन्ति. अत्र योग्यविशेषगुणानां स्वोत्तरोत्पन्नविशेषगुणनाश्यत्वम् इति नियमः. अत्र स्वोत्तरोत्पन्न इत्युक्ते अत्र पूर्वं यदा दृष्टवन्तः किल, यदा एकस्मिन् क्षणे एकः गुणः अस्ति, अनन्तरम् अग्रिमक्षणे आत्मनि अन्यस् गुणः आगच्छति इति, अथवा एकस्मिन् स्तरे क्षणे सुखम् अस्ति अनन्तरं दुःखम् आगच्छति इति. तदेव
स्वोत्तरोत्पन्न इत्युक्ते स्वम् इत्युक्ते किं? स्वम् इत्युक्ते
स्वस्मिन् इति,
स्वस्मिन् सत्यं. किन्तु अत्र स्वम् इत्युक्ते किं? कस्य उत्तरोत्पन्न भवति, कस्य उत्तरोत्पन्न नूतनगुणः आगच्छति, कस्य उत्तरम्?
एकस्य सुखं वा दुःखं वा इति,
एकस्य ज्ञानस्य, एकस्य ज्ञानस्य उत्तरम् अनन्तरं यः नूतन ज्ञानः गुणः किमपि उत्पन्नः तेन किं भवति? स्वोत्रोत्पन्नविशेष
गुणनाश्यत्वं भवति.
नियमः कस्य गुणः, कस्य नियमः इति योग्यविभुविशेषगुणानां नियमः. योग्यविभुविशेषगुण इति नामकरणं, तस्य विवरणम् अग्रे आगच्छति. वदतु महोदय.
योग्यः इत्यनेन प्रत्यक्षयोग्यः, योग्याः ये विभुविशेषगुणाः. अत्र अहं सुखी अहं दुःखी इत्यनयोः प्रत्यक्षं जायते अस्माकम्. अतः अत्र योग्यः इत्युक्ते अत्र प्रत्यक्ष ज्ञानं भवति इति. अत्र अहं सुखी अथवा अहं दुःखी इति अत्र प्रत्यक्ष वयम् अत्र अस्माकं ज्ञानं भवति. अहं जाने इत्यस्यापि प्रत्यक्षं जायते. आत्मा विभुद्रव्यं सर्वमूर्तद्रव्यसंयोगी इति.
एकनिमिषं महोदय, पूर्वस्मिन् वाक्ये किम् अस्ति? अत्र योग्यः इत्यनेन प्रत्यक्षयोग्यः, एते गुणाः षड् गुणाः आत्मनि जायन्ते. यदा जायन्ते तत्र ज्ञानं भवति. किं ज्ञानम्? अहं सुखी अहं दुःखी इति प्रत्यक्षं ज्ञानम् आत्मनि जायते. न केवलं सुखी दुःखी इति, किन्तु अहं जाने इत्यस्य इत्यपि प्रत्यक्षज्ञानम्. इत्युक्ते घटस्य ज्ञानम् इति एकं ज्ञानम्, अहं घटं जानामि इति द्वितीयं ज्ञानम्. ज्ञानद्वयम् आत्मनि वर्तते.
अत्र अहं सुखी अहं दुःखी इति अत्र प्रत्यक्षज्ञानम् अत्र अस्ति.
अत्र अहं जाने इत्यपि प्रत्यक्षम्.
आत्मा विभुद्रव्यं सर्वमूर्तद्रव्यसंयोगी इति तद् वयं जानीमः आकाशः आत्मा इति विभुद्रव्यम् अत्र सर्वमूर्तद्रव्यसंयोगी भवति इति इत्युक्ते अन्य मूर्त द्रव्येण सह संयोगः भवति
मूर्तद्रव्यम् इत्युक्ते किम्
मूर्तद्रव्यम् इत्युक्ते अत्र क्रियया अत्र द्रव्यसंयोगः भवति
क्रिया भवति क्रियायोग्यः सहस्रमूर्तद्रव्यं तेषु विभुद्रव्येण सह संयोगः भवति
तस्य च विशेषगुणः ये योग्याः सन्ति तादृशयोग्याः ये विभु विशेषगुणाः भवन्ति तेषां योग्यानां विशेषगुणानां सोत्तरोत्पन्नविशेषगुणेन नाशित्वम् इति भवति अत्र ये ये विशेषगुणाः योग्याः सन्ति तत्र तादृशयोग्याः ये विशेषगुणाः भवन्ति तेषां योग्यानां विशेषगुणानां सोत्तरोत्पन्नविशेषगुणेन नाशित्वम् इति भवति अत्र पूर्वम् अत्र अस्ति सुखं दुःखम् इत्यादि अत्र योग्यविभुविशेषगुणाः सन्ति इति अत्र एतादृश विशेषगुणाः सन्ति अत्र तेषां विशेषगुणानां सोत्तरोत्पन्नविशेषगुणेन नाशित्वम् इति अपि भवति इत्युक्ते आत्मनि यदा सुखं दुःखं यदि भवति तदा अग्रिमक्षणे एकस्मिन् ज्ञानस्य नाशः भवति अनन्तरम् अन्य गुणः आगच्छति इति अतः अत्र एतादृशविशेषगुणेषु सोत्तरोत्पन्नविशेषगुणेन नाशत्वमपि भवति इति
उत्तरवर्तिगुणेन पूर्वतनगुणस्य नाशं
भवति
नियमः तत्र केवलं नामकरणं कृतं योग्यविभुविशेषगुणः इति नामकरणम् प्रश्नः अस्ति वा अस्मिन् परिच्छेदे
प्रश्नः नास्ति
अन्येषां प्रश्नः अस्ति वा नो चेत् अग्रे पुष्पा भगिनी पठति वा तर्हि एते
अस्तु भगिनि तर्हि एते सर्वे जनकनाशजन्यगुणनाशः इति सामान्य पक्षस्य एकदेशदृष्टान्ताः रूपं रसः गन्धः स्पर्शः इत्येषां नाशानां समानाधिकरणगुणः तेजसंयोगः नाशकः द्रवत्वनाशनाशस्य अपि समानाधिकरणगुणः नाशकः आत्मसमवेतज्ञानादीनाम् अपि नाशः अपि तथा इति कृत्वा जनकनाशजन्यगुणनाशः इत्यस्य अनेके एकदेशदृष्टान्ताः अस्य आधारेण अग्रे तथाविधः खलु जनकनाशजन्यः संयोगनाशः समानाधिकरणगुणजन्यः सः गुणः एव विभागः एक समये पठित्वा वदामि महोदय
अस्तु भगिनि
क्रमेण
अत्र जनकनाश अजन्य इति
तर्हि एते सर्वे जनकनाशाजन्यगुणनाशः इति सामान्यपक्षस्य एकदेशदृष्टान्तः अस्तु तत् पर्वते वायुवग्निः अस्ति इति एकदिशपक्षः अस्ति न, तथैव सामान्यपक्षः एतत्तु एकपक्षः अस्ति, एकसामान्यपक्षः अस्ति. सा जनकनाश अजन्यगुणनाशः.
एते सर्वे इत्युक्ते के ते? एते सर्वे के?
न गुणः सर्व द्रवत्वं द्रवत्वस्य गुणः नाशः तेजस्संयोगेन इति.
यदि एकः अन्यः?
अन्यः घटस्य नाशः अस्ति.
अपि तृतीयः?
तृतीयः
दृष्टान्तः
संयो उत्पत्ति, घटस्य उत्पत्ति, उत्पत्तिसमये द्वयणकं त्रयणकं नाशः इति.
न भगिनि, भवती घट घटरूपम् इति एक एकः दृष्टान्तः, द्रवत्वघृते द्रवत्वस्य नाशः द्वितीयदृष्टान्तः, तृतीयदृष्टान्तः कः?
आत्मनि
इति. एते सर्वे एते त्रयः एकदेशदृष्टान्ताः सामान्यपक्षस्य इति उत्तमवाक्यस्य तात्पर्यम्. अस्तु अग्रे.
रूपं रसः गन्धः स्पर्शः इत्येषां नाशानां समानाधिकरणगुणः तेजसंयोगः नाशकः. समानाधिकरणगुणः तेजसंयोगः नाशकः. एतेषां नाशानां अस्तु नाशस्य नाशानां समानाधिकरणगुणः तेजसंयोगः नाशकः.
कस्य नाशकः? केषां नाशकः?
रसः गन्धः स्पर्शः
तेषां गुणानां नाशकः तेजसंयोगः. कीदृशः तेजसंयोगः? कीदृशः तेजसंयोगः? कथं तेजसंयोगः कथं नाशकः भवति?
गुणस्य परिवर्तनं कृतं न तथैव.
सत्यं, किन्तु अस्मिन् वाक्ये किम् अस्ति? इत्येषां नाशानां किं
नाशानां समानाधिकरणगुणः.
समानाधिकरणगुणः तेजसंयोगः.
तेजसंयोगः
यः तेजसंयोगः समानाधिकरणगुणः सः तेजसंयोगः नाशकः. तेषां रूपं रसं रसः गन्धः तेषां नाशकः इति एकम् उदाहरणम्. अग्रे.
द्रवत्वनाशस्य अपि समानाधिकरणगुणः नाशकः. द्रवत्वनाशः अस्ति चेत् तत् अपि समानाधिकरणगुणः गुणः नाशकः.
कः गुणः तत्र नाशकः?
द्रवत्वनाशस्य
द्रवत्वनाशं केन भवति? कः नाशकः?
कः नाशकः?
कथं भवति
द्रवत्वनाशस्य अपि समानाधिकरणगुणः नाशकः? समानाधिकरणगुणः तेजसंयोगः
इति अस्ति. सैव तेजसंयोगः द्रवत्वस्य नाशं प्रति अपि कारणम् अस्तु. नाशकः
आत्मसमवेत ज्ञानादीनाम् अपि नाशः अपि तथा. आत्मसमवेतज्ञानादीनाम् अपि तेजसंयोगः समानाधिकरणः गुणः.
न आत्मसमवेतज्ञानादीनां नाशः कथं भवति?
अपि तथा
कथं भवति आत्मसमवेतज्ञानादीनां नाशम्? नाशः
आत्मनि भवति.
कथं भवति? केन भवति? कारणं किं? कः नाशकः?
कारणं ज्ञानं, सुखं, दुःखम्, इच्छादेश, द्वेषः, प्रयत्नः इत्येते गुणनाशः भवति. तत्तु तत्तु तत्क्षणे नूतन ज्ञानं, सुखः, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः
उत्तरक्षणे, अग्रिमक्षणे, उत्तरक्षणे, अग्रिमक्षणे, द्वितीयक्षणे यत् यः नाश ज्ञानः आगच्छति तत् ज्ञानं पूर्वक्षणस्य ज्ञानस्य नाशकः भवति.
इति कृत्वा जनकनाशाजन्यगुणनाशः इत्यस्य अनेके एकदेशदृष्टान्ताः. अस्ति, जनकनाशजन्यगुणनाशः इत्यस्य अनेके एकदृष्टान्ताः सन्ति. दृष्टान्ताः तु एक्साम्पल्स् न, उदाहरणम् अस्य आधारेण अग्रे तथाविधः खलु जनकनाशजन्यः संयोगनाशः समानाधिकरण गुणजन्यः. तत्तु अस्य आधारेण अग्रे तथाविधः खलु जनकनाश अजन्यः संयोगनाशः समानाधिकरणगुणजन्यः. संयोगनाशः, संयोगनाशः तु समानाधिकरणगुणजन्यः इति वदन्ति. सः गुणः एव विभागः, संयोगनाशः एव विभागः,
संयोगनाश एव विभागति न,
समानाधिकरणगुणजन्यः
इति. सुनील् महोदय, तत्र अन्तिमवाक्यद्वयस्य तात्पर्यं वक्तुम् इच्छति वा? मूलविषयं किम् आसीत्? मूलवाक्यं किम् आसीत्? आरम्भे किम् आसीत् विभागविषये?
मूलविषये अस्माकं आश्रयनाश जन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति आसीत्. अत्र तदेव अत्र उदाहरणं तत्र अत्र सन्ति. अत्र घटस्य उदाहरणं, घृतेः उदाहरणम्, अनन्तरम् आत्मज्ञानस्य उदाहरणम्. अतः अत्र एकं तु आश्रयनाश अजन्यगुणनाशः इति अस्ति, इत्युक्ते आधारः अस्ति तस्य नाशः न भवति, परन्तु केवलं गुणनाशः भवति इति. अनन्तरं समानाधिकरणगुणजन्यः इति, अत्रापि समानाधिकरणे गुण अन्यगुणः आगच्छति इति. अतः अत्र सरलरीत्या जनकनाश अजन्य अजन्यः संयोगनाशः समानाधिकरणगुणजन्यः एषः गुणः विभागः इति अत्र अस्ति.
किमर्थं विभागस्य विभागमिति किम् उक्तं? किमर्थम् उक्तं विभागः अत्र?
अत्र पक्षभेदः आसीत्. अत्र किं विभागः गुणः नास्ति इति एकः वदति, अन्यः वदति केवलं संयोगनाशः एव विभागः गुणः एव इति.
विभागगुणः नास्ति इति, संयोगनाश एव विभागः इति एकः पक्षः. किन्तु विभागः गुणः, कीदृशगुणः? यः गुणः संयोगनाशस्य कारणम् इति तस्य उदाहरणत्रयं पुस्तके आरम्भे केवलं पाकादिरूपनाशवद् इति आसीत्, किन्तु अस्मिन् करपत्रे किं दृष्टवन्तः? उदाहरण अन्वयदृष्टान्तः त्रयः आसन् न केवलम् एकः त्रयः उदाहरण त्रयः दृष्टान्तः आसन् येन आधारेण अग्रे वक्तुं शक्नुमः तथा खलु तथाविध खलु जनकनाशजन्यसंयोगनाशः गुणः समानादिकरणगुणजन्यः स च गुणः विभागः इति अस्माकं मूललक्ष्यमासीत् अपि च अत्र मुख्यविषयः कः पीलुपाकवादिनां मतं पिटलपाकवादिनां मतम् इति किमर्थम् उक्तं रमप्रिया भगिनी अस्ति वा
आं महोदय अस्मि क्षम्यतां म्यूट् मध्ये
तस्य भेदस्य कः किं तात्पर्यं हा
तात्पर्यं
किमर्थं भेदः इति उक्तम् अस्य अस्य जनकनाशः जन्यगुणनाशः तत्र चिन्तने किमर्थं मतद्वयं ज्ञातव्यं
प्रदर्शितं किमर्थम् इति तत्र तु यदा जनकस्य विषये भिन्नता अस्ति इति वा जनकनाश अजन्यगुणनाशः इति यदा वदामः तत्र भेदः अस्ति द्वयोः मतयोः इति वा
हा इति वार्ता अस्ति पितृपाकवादिनां मते एव जनकनाशजन्यगणः जनकनाश अजन्य इति उदा दृष्टान्तः अस्ति पीलुपाकवादिनां मते एतादृश दृष्टान्तः न सम्भवति तदर्थं विस्तारेण इति उक्तम् अन्य किमपि चिन्तनम् अस्ति वा
प्रायः इदानीम् अस्माभिः न पठितं किन्तु चिन्तनार्थम् अहं वदामि तत्र ज्ञानं पूर्वज्ञानम् उत्तरज्ञानेन नश्यति इति दत्तमस्ति किन्तु ज्ञानं क्षणिकम् इत्यपि दत्तमस्ति इति कृत्वा उत्तरज्ञानं न उत्पत्स्यति चेदपि पूर्वज्ञानस्य नाशः भवत्येव किल क्षणात्मकम् इति कृत्वा
सत्यम् इति ममपि चिन्तनम् आसीत् किन्तु विषयः नास्ति
इति आसीत् न इदानीं किमर्थं तद्विषयम् अस्ति इति चेत् यदि पूर्वज्ञानस्य नाशः उत्तरज्ञानस्य उत्पादनं भवति वा न वा चेदपि तस्य ज्ञासः नाशः भवति चेत् तत् एकदेशः दृष्टान्तः न भवति
आमामां सत्यं किन्तु इदानीं यः शनिवासरवर्गे ज्ञानस्य स्वरूपम् अपि तथा क्षणिकं क्षणिकं ज्ञानं नूतनज्ञानं किं वदामि तत्र नदीव वहति तत्र
आम् प्रायः तादृशं ते वदन्ति
आमाम् इति
नूतनज्ञानं सर्वदा उत्पद्यति एव इति
प्रयति स्वीकार्यं भवति अपि च एकम् अत्र पीलुपाकवादिनां पिटर्पाकवादिनां मध्ये सामान्यं किम्
सामान्यम् इत्युक्ते तत्र तेषां समवायिकारणम् एकमेव इति
मुख्यविषयः उभयत्र समवायिकारणम् समानम् असमवायिकारणम् एकस्मिन् पक्षे भिन्नः अस्ति घटः नष्टः अन्यत्र तथा तत्र एकस्मिन् युगपत् सर्वं भवति चित्वा एक
तत्रापि मम चिन्तनम् आसीत् महोदय, युगपत् रूपम् उत्पद्यते इति ते उक्तवा ते वदन्ति किल पिटरवाकवादिनां, युगपत् केवलं रूपमेव भवति वा युगपत् घटपर्यन्तं सर्वे अवयवाः भवन्ति वा इति अत्र तद् वार्ता नास्ति, किं चिन्तनीयम् इति भाति.
अत्र शनिवासरवर्गे यदा एषः विषयः विषयस्य चर्चा आसीत् तदा तत्र प्रश्नः आगतः कथं कथं यतोहि युगपद् उत्पद्यते अपि च गुणात् पूर्वं द्रव्यं भवेत्, एकस्मिन् क्षणे सर्वत्र रक्त वर्णम् रक्तरूपम् आगन्तव्यं चेत् तस्मात् पूर्वं सम्पूर्णघटः न नश्येत् भवेत् एव.
आम्
तस्मादपि घटस्य नाशः न भवति इति तत्रापि अस्ति. युगपत् रक्तरूपम् आगच्छति चेत् पूर्वक्षणे सम्पूर्णघटं भवेत् न वा?
आम् भवेत् एव तत्र रक्तवर्णम् आगन्तुं शक्यते.
तच्च विषयः मतद्वये तत् सत्यं द्रव्यं भवेत् अनन्तरं गुणः आगच्छति.
युगपत् आगच्छति चेत् परमाणुतः साक्षात् घटः आगच्छति इति वक्तव्यम्.
सत्यं सत्यं परमाणु आरभ्य सर्वत्र एकस्मिन् क्षणे
एकस्मिन् युगपत् एकस्मिन् क्षणे एव घटपर्यन्तं भवति इति वदामश्चेत् तत् कथम् इति भवतु, तत्र क्लेशाः वर्तन्ते इति वर्तन्ते
इति चिन्तनम् इति दृष्टिः.
अस्तु महोदय,
अस्तु अन्यप्रश्नः अस्ति वा केषामपि?
न महोदय.
अस्तु रत्ना भगिनी, रमप्रिया भगिनी, पुष्पा भगिनी, सरला भगिनी, अस्तु भगिनी, अस्तु सर्वे समापयामः. शुभरात्रिः, धन्यवादः.
धन्यवादः.
शुभरात्रिः. धन्यवादः.